विद्या नाम नरस्य रूपमधिकं प्रच्छन्न गुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या विहीन पशुः। धन्यवादः महोदय। नमस्ते।
धन्यवादः भगिनि। नरेश महोदय नमस्कारः।
नमस्कारः महोदय।
नमस्कारः। आरम्भं कुर्मः। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र सर्वनामशब्दः, तत्र इदं शब्दस्य पुल्लिङ्गरूपाणि अपि नपुंसकलिङ्गरूपाणि, एतानि रूपाणि वयं गतवर्गे दृष्टवन्तः। तत् एकपञ्चाशत्तमे पुटे अस्ति, तत्र सर्वे पश्यन्तु। तत्र इदं शब्दस्य अयम्, इमौ, इमे इति रूपाणि तत्र। उषा भगिनी आरम्भं करोति वा, एकवारं पठति वा तत्र इयं शब्दस्य, इदं शब्दस्य रूपाणि?
आं महोदय। इदम् अयम् अस्ति,
इदं शब्दः प्रातिपदिकम् इदम्
अस्तु महोदय। स्त्रीलिङ्गे वा पुंलिङ्गे वा महोदय?
न, पुल्लिङ्गे, पुल्लिङ्गे। पुटसङ्ख्या अस्ति 51, तत्र पुल्लिङ्गरूपमेव दत्तम्।
इदं शब्दः पुंलिङ्गरूपाणि अयम्, इमौ, इमे, इमम्, एनम्, इमौ, एनौ, इमौ।
तत्र केवलम् इमम् एव वदतु, तत्र एनम् इदानीं मास्तु, तत्र एकं स्थापितं भवेत् मनसि।
इमम्, इमौ, इमान्, अनेन, आभ्याम्, एभिः, अस्मै, आभ्याम्, एभ्यः, अस्मात्, आभ्याम्, एभ्यः, अस्य, अनयोः, एषाम्, अस्मिन्, अनयोः, एषु।
हा, इति समीचीनं। धन्यवादः भगिनि। हा, अस्तु। इदानीं तत्र शोभा भगिनी, इदानीं तत्र योजयित्वा तत्र अयं देवः इति योजयित्वा तत्र रूपाणि वदति वा भगिनि?
आं महोदय। देवः किल,
देवः,
अयं देवः, इमौ देवौ, इमे देवाः, इमं देवम्, इमौ देवौ, इमान् देवान्, अनेन देवेन, आभ्यां देवाभ्याम्, एभिः देव देवा, तत्र तु देवैः एव, एभिः
देवैः,
अस्मै, अस्मै
देवाय,
देवाय, क्षम्यताम्, अस्मै देवाय, आभ्यां देवाभ्याम्, एभ्यः देवेभ्यः, अस्मात् देवात्, आभ्यां देवाभ्याम्, एभ्यः देवेभ्यः, अस्य देवस्य, अनयोः देवयोः, एषां देवानाम्, अस्मिन् अस्मिन् देवे, अनयोः देवयोः, एषु देवेषु।
हा, समीचीनं भगिनि। धन्यवादः।
धन्यवादः।
धन्यवादः भगिनि। अस्तु, अग्रे नरेश महोदय, इदानीं तत्र मुनिः तत्र स्मरति वा महोदय, मुनिः?
अहं करोमि।
अस्तु महोदय, तत्र पुटसङ्ख्या 51 दृष्ट्वा तत्र अयम् इति उपयुज्य अयं मुनिः इति। हा,
अस्तु। अयम्, अयं मुनिः, इमौ मुनिः, इमे मुनयः, इमं मुनिम्, इमौ मुनि, इमान् मुनीन्, अनेन,
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 अनेन मुनिना,
मुनिना, मुनिना,
मुनिना, आभ्याम्, मुनिभ्याम्, एभिः मुनिभिः, अस्मै मुनये, आभ्याम् मुनिभ्याम्, एभ्यः मुनिभ्यः, अस्मात् मुनेः, आभ्यां मुनिभ्याम् एभ्यः मुनिभ्यः अस्य मुनेः अनयोः मुनयोः
मुन्योः महोदय तत्र
मुन्योः येषां मुनीनाम् अस्मिन् मुनौ अनयोः मुन्योः येषु मुनिषु
समीचीनं महोदय. हा, एतादृश अभ्यासः भवति चेत् तत्र सम्यक्तया स्थापितं भवति, तत्र स्थापितानि भवन्ति तत्र सर्वाणि रूपाणि. हा, अस्तु, अग्रे गीताञ्जलि भगिनी, इदानीं तत्र बालकः इति, तत्र अयं बालकः इति वदति वा?
आं महोदय. अयं बालकः, इमौ बालकौ, इमे बालकाः, इमं बालकम्, इमौ बालकौ, इमान् बालकान्, अनेन बालकेन, आभ्यां बालकाभ्याम्, एभिः बालकैः, अस्मै बालकाय, आभ्यां बालकाभ्याम्, एभ्यः बालकेभ्यः, अस्मात् बालकात्, आभ्यां बालकाभ्याम्, एभ्यः बालकेभ्यः, अस्य बालकस्य, अनयोः बालकयोः, एषां
बालकानाम्
अस्मिन् बालके, अनयोः बालकयोः, एषु बालकेषु.
हा, इति समीचीनम्. अस्तु, अग्रे वेदा भगिनी, तत्र इदानीं तत्र गुरुः कर्तुं शक्नोति वा भगिनि, स्मर्यते वा गुरुः? अस्तु, अयं गुरुः इति.
अयं गुरुः, इमौ गुरु, इमे गुरुः,
गुरवः,
इमे गुरवः, इमं गुरुम्, इमौ गुरु, इमान् गुरून्, अनेन गुरुणा, आभ्यां गुरुभ्याम्, एभिः गुरुभिः, गुणेन गुरेण, गुरुणा गुरुभ्यां गुरुभिः, गुरवे अस्मै गुरवे, आभ्यां गुरुभ्याम्, एभ्यः गुरुभ्यः, गुरुणा गुरुभ्यां गुरुभिः, गुरवे गुरुभ्यां गुरुभ्यः, गुरोः अस्मात् गुरोः, आभ्यां गुरुभ्याम्, एभ्यः गुरुभ्यः, अस्य गुरोः, अनयोः गुर्वोः, एषां गुरूणां, गुरौ, अनयोः गुर्वोः, एषु गुरुषु.
गुरुषु, बहु समीचीनं भगिनि. हा, उत्तमं, धन्यवादः. अस्तु, इदानीं तत्र सुजाता भगिनी, तत्र इदम्, इमे, इमानि इति तत्र नपुंसकलिङ्गे अस्ति. हा, तत्र केवलं प्रथमाविभक्तिरूपाणि तत्र भिन्नानि सन्ति, तदनन्तरं सर्वं पुल्लिङ्गवत् अस्ति, खलु? तत्र तत्र इदं वनम् इति उपयुज्य वदति वा? इदं वनम्, इमे वने इति.
वनम्, इमे वने, इमानि वनानि, इदं.
पुनः तत्र नपुंसकलिङ्गे तत्र प्रथमविभक्ति द्वितीयविभक्ति समानम्, अतः इदं वनम्, इमे वने, इमानि.
इदं वनम्, इमे वने, इमानि वनानि.
अनेन,
अनेन वनेन, वनेन, आभ्यां वन, वनाभ्यां, येभिः वने, वनेभिः, वनैः,
येभिः वनैः,
वनैः, अस्मै, अस्मै वन,
वनाय,
अस्मै वनाय, आभ्यां वनाभ्याम्, एभ्यः वनेभ्यः, अस्मात् वन, वनात् आभ्यां वनाभ्यां एभ्यः वनेभ्यः अस्य वनस्य अनयोः वनयोः येषां वनानां अस्मिन् वने अनयोः वनयोः येषु वनेषु.
हा समीचीनं भगिनि, धन्यवादः. सो प्रिया भगिनि नमस्कारः. पुटसङ्ख्या अस्ति भगिनि 51.
धन्यवादः महोदय, नमस्ते.
धन्यवादः. अस्तु अग्रे तत्र ललिता भगिनि, इदानीं तत्र गुरु इति कृतं, तत्र कविः इति उक्त्वा उपयुज्य वदति वा अयं कविः इति.
अयं कविः, इमौ कवी, इमे कवयः, इमं कविम्, इमौ कवी, इमान् कवीन्, अनेन कविना, आभ्यां कविभ्याम्, एभिः कविभिः, अस्मै कविने,
अस्मै अस्मै
कविना कविने कविना
चतुर्थी कवि अस्मै अस्मै कवये
कवये कवये
कवये
कवये अभ्यां कविभ्यां एभ्यः कविभ्यः अस्मात् कवेः अस्मात् कवेः आभ्यां कविभ्यां एभ्यः कविभ्यः अस्य कवेः अनयोः कवयोः कव्योः ओके अस्य कव्योः एषां कवीनाम् अस्मिन् अस्मिन् कवौ अस्मिन् कवौ अनयोः कव्योः एषु कविषु
कविषु. हा समीचीनं भगिनि. हा अस्तु
धन्यवादः
भगिनि. अस्तु तत्र प्रिया भगिनी, तत्र ऋकारान्तपदं कर्तुं शक्यते वा?
आं महोदय, प्रयत्नं करोमि.
अस्तु अस्तु भगिनि. हा अतः तत्र पिता इति करोति वा?
अस्तु अस्तु महोदय, करोमि. अयं पिता, इमौ पितरौ, इमे पितरः, इमं पितरम्, इमौ पितरौ, इमान् पितॄण्, पितॄण् अनेन अनेन पित्रा, आभ्यां पितृभ्यां
समीचीनं, पितृभ्यां समीचीनं,
एभिः पितृभिः, अस्मै
पित्रे पित्रे
पित्रे
इदानीं तत्र किं स्मर्तव्यम् इत्युक्ते तत्र भवता भवते भवतः भवतः भवति इति.
अस्तु आं महोदय, आं महोदय.
तत्र हलन्तशब्दवत् तत्र किञ्चित् साम्यम् अस्ति.
अस्तु अस्तु. अस्मै पित्रे, आभ्यां पितृभ्याम्, एभ्यः पितृभ्यः, अस्मात् पित्रे
पितुः, अस्मात् पितुः,
अस्मात् पितुः, आभ्यां पितुभ्या पितृभ्याम्, एभ्यः पितृभ्यः, अस्य पितुः, अनयोः
पित्रोः
पित्रोः, एषां अनयोः पित्रोः, एषां पित्राम्
पितॄणां पितॄणां
ॄणाम् आम् आं क्षम्यतां महोदय, किञ्चित्
विस्मृतवती. चिन्ता मास्तु भगिनि, केवलम् अभ्यासार्थम्.
अस्मिन् पितरि, अनयोः पित्रोः, एषु पितृषु
पितृषु, समीचीनं भगिनि. हा अस्तु, इदानीं तत्र उषा भगिनी भवती उक्तवती किन्तु तत्र एतादृशम् अभ्यासं न कृतवती अतः तत्र किं स्वीकरोति तत्र हलन्तपदं स्वीकरोति वा करोति वा किमपि किमपि करोतु किमपि
नपुंसकलिङ्गं स्वीकृत्य
किं भगिनि
अस्तु
मनस् मनस् मनसि मनसि अस्तु इदम् इदं मनः अस्तु भगिनि
इदं मनः इमे मनसि इमानि मनांसि इदं मनः इमे मनसि इमानि मनांसि अनेन मनसा अभ्यां मनोभ्याम् एभिः मनोभिः अस्मै मनसे आभ्यां मनोभ्याम् येभ्यः मनोभ्यः अस्मात् मनसः आभ्यां मनोभ्यां येभ्यः मनोभ्यः अस्य मनसः अनयोः मनसोः येषां मनसाम् अस्मिन् मनसि अनयोः मनसोः येषु मनस्सु
मनस्सु बहु समीचीनं भगिनि अस्तु अस्तु तत्र सर्वे कृतवन्तः अभिनन्दनानि सर्वे उत्तमरीत्या कृतवन्तः तत्र इदानीं तत्र अयम् इमौ इमे इति तत्सर्वं स्थापितमस्ति इदानीं तत्र उपयोगं कुर्मः अस्तु तर्हि तत्र नरेश् महोदय तत्र प्रथमविभक्ति उपयुज्य सरलवाक्यं वदतु तत्र एतादृशं तत्र अयं बालकः अस्ति अथवा तत्र अयं बालकः विद्यालयं गच्छति तादृशं किमपि वाक्यं वदतु
अयं पुरुषः कार्यालयं गच्छति
हा अस्तु समीचीनं धन्यवादः अस्तु गीताञ्जलि भगिनी इदानीं तत्र तद् उपयुज्य कर्मपदं करोतु तत्र अयं पुरुषः इति इदानीं तत्र कर्मपदं भवेत् भवत्याः वाक्ये
आं महोदय अयं पुरुषः
अयं पुरुषः कार्यालयं गच्छति इदानीं द्वितीयवाक्यं द्वितीया विभक्तौ
ओ अस्तु अस्तु इमं पुरुषम् इमं पुरुषम् इत्युक्ते बालकः इमं पुरुषं पश्यति
समीचीनं तावदेव अस्तु समीचीनम् अस्तु इदानीं शोभा भगिनी तृतीया विभक्ति अयं पुरुषः इति अस्ति अयं पुरुषः कार्यालयं गच्छति बालकः इमं पुरुषं पश्यति इदानीं तृतीया विभक्तौ तृतीयवाक्यं
अनेन पुरुषेण कार्यालये कार्यं कृतम् अस्ति
अनेन पुरुषेण कार्यालये कार्यं कृतम् अस्ति समीचीनं भगिनि अस्तु इदानीं ललिता भगिनि इदानीं चतुर्थी विभक्तिः अयं पुरुषः उपयुज्य
बालकः अस्मै
सत्यं हा चतुर्थी अस्मै
बालकः अस्मै पुरुषै
पुरुषाय
अस्मै पुरुषाय धनं ददाति
धनं ददाति अस्तु समीचीनम् इदानीं सुजाता भगिनी षष्टि इदानीं क्षम्यतां तत्र पञ्चमी न उक्तं खलु पञ्चमी न उक्तम्
अस्मात् वृक्षात्
न न इदानीं पुरुषः एव तत्र पुरुषः अयं पुरुषः इति एव किमपि चिन्तयतु
अस्मात् पुरुषात् भवति वा महोदय
पुरुषात् एव पुरुषः पुरुषात् देवः देवात् अस्मात् पुरुषात्
अस्मात् पुरुषात् 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 पुस्तकं पतति.
अस्तु, समीचीनम्. अस्तु, तत्र पुस्तकं तस्य हस्ते अस्ति इदानीं, तस्मात् पुरुषात् पुस्तकं पतति. समीचीनं समीचीनं भगिनि. अस्तु, वेदा भगिनी अग्रे इदानीं तत्र षष्टि.
हा महोदय, षष्टिविभक्ति अस्य अस्य पुरुषस्य पुत्रः रामः अस्ति.
रामः अस्ति. अस्तु, इदानीं उषा भगिनी सप्तमी.
आं महोदय, अयं पुरुषस्य पत्नी.
न न, इदानीं तत्र सप्तमी इति अयं पुरुषः इति पदस्य सप्तमी, अस्मिन् पुरुषे इति.
अहं वक्तुम् इच्छामि महोदय एकवारं.
अस्तु अस्तु अस्तु,
करोमि महोदय. सम्यक् अस्ति चेत् वदतु. अयं पुरुषस्य पत्नी अस्मिन् सन्दर्भे भगवद्गीतायाः प्रवचनं पठति.
हा, किन्तु तत्र अयं पुरुषः इति पदस्य षष्ठी न सप्तमी भवेत्. अपि भवती किम् उक्तवती, अयं पुरुषस्य, तत् कथं भवति? अयं पुरुषः अस्ति चेत् तत्र कः सम्बन्धः अस्ति तयोः?
अस्मिन् सन्दर्भे तस्य पत्नी गीतायाः प्रवचनं ददाति.
ददाति, अस्तु. किन्तु तत्र अयं पुरुषः इति पदस्य सप्तमी नास्ति खलु?
अस्तु महोदय. अस्मिन् सन्दर्भे
न अस्मिन् पुरुषे इति एव वाक्यं भवेत्.
पुरुषे, अस्मिन् पुरुषे. अस्तु, अस्मिन् पुरुषे बहवः उत्तमं गुणं.
बहवः इत्युक्ते पुल्लिङ्गे, बहवः उत्तमाः
उत्तमाः गुण उत्तमानि गुणानि सन्ति.
बहूनि
बहूनि उत्तमानि गुणानि सन्ति.
हा, तावदेव, समीचीनम्. अस्तु अस्तु, इदानीं तत्र अभ्यासः अपि जातः. अस्तु, तर्हि इदानीम् अग्रे सरामः. इदानीम् अग्रे तत्र
महोदय एकः प्रश्नः महोदय, एषः अपि च सः अपि च अयं कदा उपयोगं कुर्मः महोदय?
सः इत्युक्ते तत्र तत्र अभ्यासपुस्तके अस्ति खलु, तत्र दूरे अस्ति चेत् सः इति, एषः अस्ति चेत् तत्र, समीपे अस्ति चेत् एषः, तत्र अयम् अपि तत्र साधारणतया तत्र समीपे अस्ति चेत् अयम् इति वदामः.
एषः अपि समीपे न महोदय,
समीपे एव, समीपे एव. तत्र तत्र सूक्ष्मभेदः अस्ति इदानीं, मास्तु, अस्ति भेदः अस्ति, किन्तु अयम् इति समीपे अस्ति चेत् इति स्वीकरोतु. अयम् इति यत्र सः, यत्र एषः इति वक्तुं शक्नुमः, तत्र अयम् इति वक्तुं शक्नुमः.
परन्तु भेदः अस्ति न महोदय?
अस्ति अस्ति, इदानीं मास्तु. इदानीं स्वीकुर्मः तत्र अयं नाम एषः इति. अस्तु
अस्तु महोदय.
तत्र यः भेदः तयोः मध्ये अस्ति, सः भेदः सूक्ष्मः अस्ति अपि, कदापि प्रायशः भवती न पश्यति सः तं भेदं. नाम तत्र प्रयोगे भेदः न दृश्यते. तत्र अस्मिन् तत्र अस्यां कथायां तत्र पश्यतु, तत्र अस्य सर्वस्य अयम् इति यत्र कुत्र अस्ति तत्र प्रायशः कुत्रापि न दृश्यते. तत्र अयः अयम् अपि एषः तयोः मध्ये कुत्र भेदः इति. अतः इदानीं भेदः मास्तु.
अस्तु महोदय.
अग्रे यदि इच्छन्ति चेत् वदामि तत्र कः भेदः इति. किन्तु प्रथमतया किं स्थापनीयम् इत्युक्ते तत्र रूपं कीदृशम् इति स्थापनीयं, प्रयोगं स्थापनीयं मनसि.
अस्तु महोदय.
अस्तु, धन्यवादः भगिनि. अस्तु, इदानीम् अग्रे सरामः. तत्र अग्रे तत्र प्रायशः तत्र अनेकान् अभ्यासान् कृतवन्तः. एकः एव अभ्यासः अस्ति तत्र, सम्भाषणरूपे अस्ति. तत्र अस्तु, सुजाता भगिनी भवती अपि तत्र मार्गदर्शकः इति अस्ति. तत्र नरेश महोदय, तत्र नरेश महोदय अपि सुजाता भगिनी पठति वा?
एतत् सम्भाषणं पठत पर्यटकाः अनन्तगणेशपद्यनाभाः मार्गदर्शकः रङ्गनाथः च नमो नमः वयं कुरुक्षेत्रं द्रष्टुम् इच्छामः
अहं भवतः सर्वान् नयामि मया सह आगच्छन्तु
अत्र वयं प्रथमं किं पश्यामः
प्रथमं वयं ब्रह्मसरोवरं गच्छामः तत् बहु सुन्दरं विशालस्य स्थानम् इदमस्ति गीता उपदेशस्थानम्
एतस्य वैशिष्ट्यं किम्
गीतोपदेशस्य साक्षीभूतः वटवृक्षः एषः अत्र अस्ति एतस्य स्थानस्य नाम ज्योतिः सरः
भवान् अस्मान् भीष्मकुण्डं नयति वा
अधुना तत्रैव भवद्भिः सह अहम् आगच्छामि पितामहः भीष्मः समाप्यानन्तरं युधिष्ठिरम् अत्र उपदिष्टवान् अस्माकं सर्वेषाम् एतत् श्रद्धाकेन्द्रम्
एतत् किं मन्दिरम्
एतस्य मन्दिरस्य नाम
स्थाणुमन्दिरम्
एतस्मिन् एव मन्दिरे युद्धात् पूर्वं पाण्डवाः पूजां कृतवन्तः भद्रकालीमन्दिरम्
अहो धन्याः स्मः कुरुक्षेत्रस्य दर्शनेन
हा समीचीनं धन्यवादाः अस्तु इदानीं तत्र पङ्क्तिशः पश्यामः तत्र शोभा भगिनी आरम्भं करोति वा
आं महोदय प्रथमं तत्र पर्यटकः नमो नमः इति वदति
पूर्वं तत्र पर्यटकाः के
अस्तु पर्यटकाः अनन्तः गणेशः पद्मनाभः
इति तत्र त्रयः पर्यटकाः सन्ति
तत्र समस्तपदं कृतम् अपि च समस्तपदस्य बहुवचने प्रयोगः कृतः मार्गदर्शकः अपि अस्ति अपि च रङ्गनाथः च रङ्गनाथः कः इत्युक्ते
तत्र प्रायशः मार्गदर्शकः रङ्गनाथः
रङ्गनाथः ओ अस्तु तत्र
तत्र च नाम तत्र
रङ्गनाथः
च नाम तत्र पर्यटकाः अपि मार्गदर्शकः अस्तु
पर्यटकः वदति नमो नमः इति वयं कुरुक्षेत्रं द्रष्टुम् इच्छामः इति तत्र वयम् इति पदं विशेषतया दर्शितम् वयम् इच्छामः द्रष्टुम् इच्छामः कुरुक्षेत्रं द्रष्टुम् इच्छामः इति
अत्र प्रायशः वयं सर्वान् मया किमर्थम् इत्युक्ते तत्र सर्वनामशब्दः इति हा अस्मिन् पाठे तत्र सर्वनामशब्दाः एव मूलविषयः आसीत् खलु
आं महोदय तत्र अहम् इत्यस्य बहुवचनम् अस्ति इति कृत्वा
हा अतः तत्र सर्वनामशब्दाः तत्र ते सर्वे तत्र स्थूलक्षरैः स्थूलमुद्रणं कृतं तेषाम्
तदा मार्गदर्शकः वदति अहं भवतः सर्वान् नयामि तत्र भवतः सर्वान् इति द्वे अपि द्वितीया बहुवचने
हा समीचीनं
भवान् इत्यस्य भवतः इति बहुवचने भवति
हा तत्र भवतः इति अन्यत्र कुत्र भवति भवान् शब्दस्य भवति किन्तु अत्र द्वितीया बहुवचनमेव समीचीनं यतोहि तत्र सर्वान् नाम
विशेषणं
भवता भवतः सर्वान् नयामि अतः तत्र कर्मपदं नयामि इति पदस्य कर्मपदम्
आम् 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 सर्वः इति पदस्य कर्मपदं सर्वान् इति पुल्लिङ्गे
पुल्लिङ्गे
मया सह आगच्छन्तु इति तत्र पुनः अहम् इत्यस्य तृतीयविभक्ति मया भवति मया सह सः इति उपपदविभक्ति इति भवति किल महोदय आगच्छन्तु इति पर्यटकः वदति अत्र वयं प्रथमं किं पश्यामः इति तत्र पुनः किम् इति प्रातिपदिकम् अपि च प्रथमविभक्ति तत्र तु प्रथमविभक्ति वयं किं प्रथमविभक्ति एव भवति वयं किं पश्यामः इति अपि च तत्र तावदेव वयम् इति पदं पुनः आगतः
वयम् अपि किं पश्यामः तत्र किम् इति तत्र
किम् इति किम् कर्मपदम् ओ अस्तु अस्तु क्षम्यताम् अत्र प्रथमं किम् इति अस्ति इति कृत्वा तत्र कर्मपदं भवति अपि च तत्र तु किं प्रथमा अपि द्वितीया समानमेव अस्ति विभक्तौ मार्गदर्शकः वदति प्रथमं वयं ब्रह्मसरोवरं गच्छामः इति तत्र प्रथमं वयं ब्रह्मसरोवरं तत्र ब्रह्मसरोवरम् इति कर्मपदं भवति द्वितीयविभक्तौ गच्छामः इत्यस्य कृते अपि च प्रथमं वयं तत् इत्युक्ते बहु सुन्दरं विशालञ्च स्थानं तत्र तत् इत्युक्ते तत् इति प्रातिपदिकं पुनः क्षम्यतां तत्र तत् ते तानि अनुपुंसकलिङ्गे भवति
तत् नाम किं तत्र
तत् नाम तत्र स्थानम् इत्यस्य कृते किं वदामः तत्र महोदय
तत् नाम तत्र पूर्वं वाक्यं पश्यतु तत्र तत्र
किं सुन्दरम् अस्ति ब्रह्मसरोवरम् इति
ब्रह्मसरोवरं
बहु सुन्दरं विशालं च
इति तत्र विशालं तदनन्तरं च तत्र यो सन्धि कृत्वा तत्र
चवर्गीय अनुनासिकव्यञ्जनम् आगतं
व्यञ्जनं तत्र आगच्छति समीचीनम् अतः विशालञ्च
इति
अस्ति तत्र स्थानं नाम स्थानं पुनः तत्र ब्रह्मसरोवरस्य विशेषणं तत्र ब्रह्मसरोवरं किमस्ति तत् स्थानम् कीदृशम् अस्ति स्थानम् अस्ति विशालम् अस्ति बहु सुन्दरं
तत् ब्रह्मसरोवरं बहु सुन्दरम् अस्ति बहु विशालम् अस्ति बहु विशालं च अस्ति
तादृशं स्थानम् ब्रह्मसरोवरं स्थानम् अस्ति कीदृशं स्थानं विशालं स्थानम् अपि सुन्दरं बहु सुन्दरं
स्थानं
समीचीनं
अग्रे इदम् अस्ति गीता उपदेशस्थानम् इति तत्र पुनः ब्रह्मसरोवरस्य सूचनाय इदम् अस्ति इति इदम् अस्ति गीता उपदेशस्थानं तत् ब्रह्मसरोवरं गीता उपदेशस्य स्थानम् अस्ति
न इदानीं तत्र तद्भिन्नमस्ति भगिनि तत्र ब्रह्मसरोवरम् इति एकम् अन्यत् अस्ति तत्र गीता उपदेशस्थानं तत्र प्रायशः समीपे एव अस्ति किन्तु ब्रह्मसरोवरस्थानम् अस्ति ब्रह्मसरोवरमस्ति
तटे कृतं वा इति अहं चिन्तितवती.
न न भगिनि, तत्र गतवान् अस्मि, तत्र समीपे एव अस्ति, किन्तु तत्र भिन्नं स्थानम् अस्ति.
ओ, वृक्षः अस्ति वा तत्र महोदय?
हा, वृक्षः अस्ति, वृक्षः अस्ति, वृक्षः अस्ति.
भवान् गतवान्
वा? तत्र अनेकवर्षात् प्राक् भगिनि, प्रायशः तत्र 20 वर्षपूर्वम्.
अस्तु, किन्तु समीचीनं महोदय.
हा, एकवारं तत्र गतवान्. हा, अस्तु, तत्र इदम् अस्ति, तत्र गीता उपदेशस्थानं. हा, तत्र गीता उपदेशः
कुत्र उद्देश्य वदति तर्हि?
हा, इदम् इति नाम अन्यत् स्थानं, तद् गीतोपदेशस्थानं. समीचीनं भगिनि, अस्तु, धन्यवादः. अस्तु, अग्रे ललिता भगिनी अग्रे पठति वा?
पठामि महोदय. इदमस्ति गीता उपदेशस्थानम्. एतस्य वैशिष्ट्यं किम्?
तत्र एतस्य नाम कस्य?
एतस्य गीता उपदेशस्थानस्य वैशिष्ट्यं किम्?
वैशिष्ट्यं किं? तत्र वैशिष्ट्यं नाम विशेषणं, विशेषं, तत्र किं विशेषं गुणम् अस्ति तत्र, अतः तत्र वैशिष्ट्यं किम् अस्ति अस्य स्थानस्य, अस्य स्थानस्य अथवा एतस्य स्थानस्य? तत्र अस्य, एतस्य इति दत्तमस्ति, किन्तु तत्र अस्य अपि स्थापितुं शक्नुमः खलु?
अस्तु, गीता गीतोपदेशस्य साक्षिभूतः वटवृक्षः एषः अत्र अस्ति. साक्षिभूतः इत्युक्ते साक्षिरूपेण गीता उपदेशः.
साक्षी आसीत् तत्र वटवृक्षः गीतोपदेशसन्दर्भे, तत्र तस्मिन् समये सः वृक्षः आसीत्, इदानीमपि अस्ति सः वृक्षः.
प्रथमविभक्ति एकवचने अस्ति.
हा, एषः वटवृक्षः, एषः वटवृक्षः अत्र अस्ति. एषः वटवृक्षः कीदृशः?
एषः साक्षीभूतः.
हा, साक्षीभूतः. कस्य साक्षीभूतः? गीतोपदेशस्य साक्षीभूतः. तत्र पूर्वमपि दृष्टवन्तः, तत्र कारणीभूताः इति तत्र पाठे आसीत्. अत्रापि तत्र किमस्ति? साक्षीभूतः, तत्र तत्र भूतः, तत्र नाम पूर्वं साक्षी नासीत्, तदनन्तरं साक्षी भूत्वा तत्र साक्षी अभवत्. तत्र शुक्लीकरोति इति तत्र अस्ति, तत्र पूर्वं शुक्लं नासीत्, तदनन्तरं शुक्लम् अभवत्, अतः तत्र शुक्ली भूत्वा अथवा शुक्लीकृत्वा तादृशं तत्र साक्षी भूत्वा इति तत्र. हा, अतः तत्र साक्षीभूतः, एषः साक्षीभूतः, साक्षी अभवत् एषः वृक्षः, अयं वृक्षः, वटवृक्षः गीतोपदेशस्य साक्षी, साक्षी अभवत् इति.
ह्रस्व अस्ति तत्
साक्षी,
नाट् दीर्घ, नाट्
हा हा, साक्षीभूतः, साक्षीभूतः, सत्यं भगिनि, हा हा हा, साक्षीभूतः, हा, साक्षीभूतः वटवृक्षः. अग्रे
अत्र अस्ति. एतस्य स्थानस्य नाम ज्योतिः, ज्योतिः सरः, ज्योतिः सरः पुल्लिङ्गे अस्ति. नाम
स्थानम् अपि ज्योतिसरः, तत्र सरः इत्युक्ते प्रातिपदिकं किं?
नामनि, नामानि.
किन्तु तत्र सरः इति प्रथमविभक्तिरूपम् अस्ति, किन्तु प्रातिपदिकं किम् अस्ति?
सरस्.
हा, समीचीनम्. अतः तत्र सरस्, सरः, सरसि, सरांसि,
सरांसि.
अत्र तत् भिन्नम् अस्ति, तत्र अन्यत् स्थानम् अस्ति, तत्र ज्योति,
ज्योतिः सरः.
अथवा एतदेव ज्योतिस्तरः भवेत्, न जानामि, न स्मरामि इदानीं, किन्तु अस्तु, अग्रे.
भवान् अस्मान् भीष्मकुण्डं कुण्टं नयति वा?
हा, तत्र इदानीं तत्र
अस्मान् इत्युक्ते बहुवचने अस्ति.
इदानीं तत्र कर्तृपदं किम् अस्ति अस्मिन् वाक्ये कर्तृपदं किम् अस्ति भवान् अस्तु क्रियापदं किम् अस्ति
क्रियापदं नयति
नयति समीचीनम् इदानीं तत्र नयति इति पदस्य
पदमस्ति अस्मान्
अस्मान् इति पदस्य विभक्ति का
अस्मान् बहुवचने द्वितीया विभक्ति बहुवचने अस्ति अस्मान्
अस्तु अतः तत्र क्रमपदं वा
पर्यटकान्
हा अस्मान् पर्यटकान् समीचीनं हा पर्यटकान् इदानीं तत्र तद् किमर्थं द्वितीयविभक्तौ अस्ति
कारणं
भीष्मकुण्डम् इति कर्मपदम् इति उक्तवती खलु इदानीं तत्र अस्मान् इति अपि कर्मपदं वा
कान् भीमकुण्डं नयति अस्मान्
हा तत्र हा प्रायशः स्मरति भगिनी किन्तु तत्र जानाति एव प्रायशः न स्मरति तत्र नयति इति विशेष विषये तत्र नयति इति क्रियापदस्य वैशिष्ट्यं किम् अस्ति द्विकर्मक अस्ति हा तत्र किम् अपि कम् इति हा तत्र पृच्छति किं पृच्छति कं पृच्छति इति तादृशं तत्र नयति अतः तत्र हा द्विकर्मक अतः एव तत्र कुत्र नाम भीष्मकुण्डं नयति कान् अस्मान् पर्यटकान् नयति इति अतः तत्र द्वयमपि कर्मपदं किन्तु तत्र
भवान् इत्युक्ते मार्गदर्शकः
भवान् तत्र प्रश्नः अस्ति भवान् नयति वा इति तत्र मार्गदर्शकः मार्गदर्शकम् उद्दिश्य प्रश्नः अस्ति तत्र भवान् अस्मान् पर्यटकान् तत्र
विशेषतया दत्तमस्ति न भवान् अपि
हा तत्र सर्वनामपदम् अस्ति इति न जानामि किमर्थं तत्र अस्मान् इति स्थूलक्षरे न लिखितं किन्तु अस्तु हा अग्रे
अग्रे अधुना तत्रैव भवद्भिः सह अहम् आगच्छामि मार्गदर्शकः वदति इति भवद्भिः सह तृतीया विभक्ति बहुवचने अस्ति भवद्भिः सह अहम् आगच्छामि अत्र अहमपि
भवन्तः भवन्तः आगच्छन्तु अहमपि
अहमपि
भवद्भिः सह भवद्भिः सह तत्र सः इति अस्ति अतः तत्र भवद्भिः सह तत्रैव आगच्छामि कदा अधुना एव अधुना एव तत्र तत्रैव भवद्भिः सह अहम् आगच्छामि हा अग्रे
पितामहः भीष्मः युद्धसमाप्त्यनन्तरं युधिष्ठिरम् अत्र उपदिष्टवान्
हा वयं तत्र पाठे एषः एव विषयः आसीत् खलु तत्र
युधिष्ठिरः शय्यां
हा तत्र भीष्मः तत्र युधिष्ठिरम् उद्दिश्य तत्र तत्त्वम् उक्तवान् खलु तथापि उक्तवान् तत्र अतः तत्र तत्र एव तत्र उपदिष्टवान् युधिष्ठिरम् उपदिष्टवान्
उपदिष्टवान्
हा उपदेशं
युधिष्ठिरनन्तरं युद्धस्य
समाप्तिः अनन्तरं तत्र हा तत्र इकारः अकारः तत्र मेलनं हा समीचीनं हा यकारस्य आदेशः समीचीनम् अस्तु तत्र युद्धसमाप्त्यनन्तरं युधिष्ठिरम् अत्र उपदिष्टवान् अग्रे
समाप्यनन्तरं
समाप्यनन्तरं युद्ध
समाप्ति अनन्तरं
हा समीचीनं भगिनि तदेव अस्ति हा
युधिष्ठिरम् अत्र उपदिष्टवान्
हा उपदेशं कृतवान्
कृतवान् दत्तवान्
युधिष्ठिरस्य उपदेशं कृतवान् अग्रे
अस्माकं सर्वेषाम् एतत् श्रद्धाकेन्द्रम्
तत्र एतत् तत्र भीष्मकुण्डम् इति स्थलं भीष्मकुण्डम् इति स्थानं तत्र
ज्योतिः सर अपि
प्रायशः सर्वं किन्तु इदानीं केवलं तत्र वाक्ये तु तत्र एतत् नाम भीष्मकुण्डं किम् अस्ति भीष्मकुण्डं किम् अस्ति
श्रद्धाकेन्द्रम् अस्ति
एतत् एतत् भीष्मकुण्डं श्रद्धाकेन्द्रम् अस्ति कस्य कस्य श्रद्धाकेन्द्रम् अस्ति अस्माकं सर्वेषां षष्टि बहुवचनम् अस्माकं सर्वेषां श्रद्धाकेन्द्रमस्ति एतत् भीष्मकुण्डम् समीचीनं भगिनि धन्यवादः अस्तु अग्रे तत्र उषा भगिनी अग्रे पठति वा भगिनि
आं महोदय पर्यटकः एतत् किं मन्दिरम् एतत् इत्युक्ते इदमपि उपयोगं कुर्मः तत्र नपुंसकलिङ्गे
सत्यं इदं किं मन्दिरं
किं मन्दिरं पर्यटकः पृच्छति दर्शकः एतस्य मन्दिरस्य नाम स्थाणुमन्दिरम् एतस्य विभक्ति एतस्य स्थाने अस्य अपि उपयोगं कुर्मः अस्य मन्दिरस्य नाम स्थाणुमन्दिरम् एतस्मिन् एव मन्दिरे युद्धात् पूर्वं पाण्डवाः पूजां कृतवन्तः
तत्र पूर्वम् इति अस्ति युद्धात् पूर्वं किमर्थम् पूर्वम् अस्ति चेत् तत्र पञ्चमी युद्धात् पूर्वं पाण्डवाः
पूजां कृतवन्तः
कुत्र कृतवन्तः पूजां
स्थाणुमन्दिरे
स्थाणुमन्दिरे एव
युद्धात् पूर्वं पाण्डवाः पूजां कृतवन्तः एतस्मिन् स्थाने अस्मिन् अपि भवति
तत्र तत्र पार्श्वे एव अत्र भद्रकालीमन्दिरमपि अस्ति
न महोदय एतस्मिन् स्थाने अस्मिन् अपि उपयोगं कुर्मः
अस्मिन् अपि उपयोगं कर्तुं शक्नुमः समीचीनं भगिनि अस्मिन् एव मन्दिरे
मन्दिरे युद्धात् पूर्वं पाण्डवाः पूजां कृतवन्तः
समीचीनम्
एतद् अस्ति भद्रकालीमन्दिरम् एतद् अस्ति भद्रकालीमन्दिरम्
अथवा इदम् अस्ति
भद्रकालीमन्दिरम्
समीचीनं
मन्दिरमपि अस्ति
तत्र शिवमन्दिरम् अस्ति चेत् तत्र पार्श्वे एव तत्र देव्याः मन्दिरमपि भवति खलु अतः तत्र भद्रकालीमन्दिरमपि पार्श्वे एव अस्ति
पर्यटकः अहो धन्याः स्मः कुरुक्षेत्रस्य दर्शनेन
तत्र क्रियापदं किम् अस्ति अत्र
क्रिया अहो धन्याः स्मः कुरुक्षेत्रदर्शनेन वयं कुरुक्षेत्रदर्शनेन दर्शनेन तृतीया विभक्ति कुरुक्षेत्रस्य षष्ठी विभक्ति स्मः अस्ति महोदय
स्मः समीचीनं वयं कीदृशाः वयं धन्याः केन धन्याः वयं कुरुक्षेत्रस्य दर्शनेन वयं धन्याः स्मः समीचीनं भगिनि अस्तु उत्तमम् अस्तु अग्रे गीताञ्जलि भगिनी अग्रे पठति वा
पठामि महोदय एतं गीताश्लोकं पठत अत्र प्रयुक्तानि सर्वनामानि जानीत यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते हत्वापि स इमान् लोकान्न हन्ति न निबध्यते अत्र यस्य सर्वनाम अस्ति यस्य षष्टिविभक्ति एकवचनरूपम् अपि च तत्र इमान् लोकान् इमान् लोकान् तु द्वितीयविभक्ति बहुवचनरूपम् अस्ति लोकान् इति इत्युक्ते अयम् इमौ इमे इमम् इमौ इमान् इमान् लोकान् अपि च इति एवं महोदय द्वे
अस्तु तत्र सर्वनामशब्दाः तत्र किं किम् अस्ति इमान् इति अस्ति
इमान् इमान् लोकान् इति अपि च यस्य यस्य इति यस्य अपि सर्वनाम पदमस्ति षष्टिभक्ति यस्य बुद्धिर्यस्य इत्युक्ते तत्रापि यस्य अस्ति
तत्र यस्य न अहंकृतः भावः
यस्य न अहंकृतः भावः अपि च
बुद्धिः
यस्य बुद्धिः न लिप्यते
यस्य बुद्धिः न लिप्यते
हत्वापि
इमान् हत्वापि इमान् लोकान् हत्वा अपि
इमान् लोकान् इति तु कर्मपदमस्ति
सः सत्यं सः हत्वा सः हत्वा किं हत्वा सः इमान् लोकान् हत्वा अपि
न हन्ति न निबध्यते
न निबध्यते तत्र तस्य बन्धनं न भवति सः न हन्ति अपि सः न तस्य बन्धनं न भवति कस्य यद्यपि सः इमान् लोकान् हन्ति तत्र किन्तु हत्वा अपि तत्र इमान् लोकान् तत्र हन्ति किन्तु किमपि तस्य तत्र
तस्य बन्धनं न भवति
तत्र सः कर्ता नास्ति यतोहि तत्र अहं कर्ता इति सः तादृशबुद्धि तस्य नास्ति
अहंकार नास्ति तत्र
अतः तत्र अहंकृतः इति यस्य न अहंकृतः भावः बुद्धिः तत्र अतः तत्र तादृशः अपि यस्य बुद्धिः न लिप्यते
लिप्यते अपि सम्बन्ध एव
बुद्धिः तत्र लिप्यते तत्र नाम स्वच्छः अस्ति इति बुद्धिः स्वच्छा अस्ति बुद्धिः स्वच्छा अस्ति तादृश यत् किमपि करोति तत्र तेन बन्धनं तस्य बन्धनं न भवति यद्यपि सः हन्ति किन्तु तत्र
न
भवति अतः तत्र तादृशी कीदृशः इत्युक्ते तत्र एतादृश पुरुषः अथवा मनुष्यः तत्र कर्ममुक्तः अस्ति नाम तत्र यत्किमपि करोति तत्र कृष्णस्य वर्णनम् इति श्रीकृष्णस्य वर्णनम् इति चिन्तयितुं भगवतः वर्णनम् इति चिन्तयितुं शक्नुमः
तदेव अस्ति भगवद्गीताया अपि च सुक्तिः स सुहृद् व्यसने यः स्यात्
तत्र व्यसने नाम किं कोऽपि वदति वा व्यसने नाम तत्र व्यसने कष्टः यदा भवति अथवा तत्र तत्र दुर्घटना किमपि अभवत् अतः तत्र सर्वे कुटुम्बिनः तत्र किं दुःखिताः सन्ति तस्मिन् समये यः सुहृद् अस्ति सः एव वस्तुतः सुहृद्
सः एव सुहृद्
तत्र सन्तोषसमये सुहृद् अस्ति किन्तु दुःखसमये सुहृद् नास्ति चेत् तत्र सः वास्तविकसुहृद् नास्ति इति अस्तु समीचीनं भगिनि धन्यवादः
विधिलिङ्ग् अस्ति वा
स्यात् स्यात् इति विधिलिङ्ग् भगिनि अग्रे आयाति समीचीनं भगिनि स्यात् स्यात् इति तत् प्रसिद्धः लकारः
अस्धातुतः
अस् धातुः हा अस् धातुः विधिलिङ्गकारः तत्र बहुत्र भवति विधिलिङ्ग् अस्तु तर्हि इदानीम् अग्रे सरामः तत्र कोऽपि प्रश्नः अस्ति वा अस्मिन् पाठे एतावत् सर्वं समीचीनं वा सर्वं बुद्धं वा
महोदय एक प्रश्नं पृच्छामि अहं वैशिष्ट्यं शब्दस्य उत्पत्ति किमर्थम्
तत्र भगिनि तत्र भाववाचकशब्दः तत्र विशेषः इत्युक्त्वा तत्र सुन्दरता सौन्दर्यं तादृशं तत्र वैशिष्ट्यं किं भगिनि
तद्दितभाव
हा तत्र प्रत्यय तस्य नाम न स्मरामि भगिनि तत्र तल् नास्ति न स्मरामि भगिनि न स्मरामि किन्तु तत्र प्रायशः अस्मिन् पाठे अस्मिन् पुस्तके न किन्तु गीता प्रवेशे प्रथमभागे एतत् सर्वम् अस्ति भगिनि अस्तु तत्र प्रत्ययत्रयम् अस्ति तत्र सुन्दरता सुन्दरत्वं तत्र त्वं तु सुलभमस्ति सर्वत्र त्वम् इति स्थापयितुं शक्नुमः पुस्तकत्वं सूर्यत्वं चन्द्रत्वं नादत्वं तत्त्वं किन्तु तत्र सुन्दरता अपि अस्ति सौन्दर्यमपि अस्ति किन्तु अग्रे अग्रे आयाति भगिनि अस्तु तर्हि इदानीं भवती एव
क्रियापदं लिप्यते अपि क्रियापदमस्ति न महोदय
लिप्यते अपि क्रियापदं सत्यं भगिनि
निबध्यते नि उपसर्गपूर्वकम् अपि च हन्तिवि अस्ति न महोदय
हन्ति अपि सः न हन्ति सत्यं भगिनि
त्रीणि क्रियापदानि
सत्यं भगिनि लिप्यते हन्ति निबध्यते सत्यं भगिनि अपि तत्र हत्वा इति त्वान्तम् इमान् लोकान् इति कर्मपदद्वयं द्वितीयविभक्तौ अपि तदनन्तरं यस्य इति षष्टि न अव्ययम् अहङ्कारकृत् कृतः नाम तत्र पुल्लिङ्गपदं प्रथमविभक्ति भावः
बुद्धिः
यस्य पुनः षष्टि न लिप्यते अस्तु समीचीनं भगिनि अस्तु अग्रे वेदा भगिनि
श्रद्धावान् लभते ज्ञानं सर्वनामशब्दाः स्त्रीलिङ्गे भगवद्गीतायां भगवान् श्रीकृष्णः श्रद्धां सम्यक् विवृतवान् अस्ति इयं च सात्विकी राजसी तामसी इति त्रिविधा इमां सात्विकीं श्रद्धां आपन्नाः जनाः देवान् यजन्ते अस्याः राजस्याः श्रद्धायाः उपासकाः यक्षरक्षांसि भजन्ते तामस्याः अस्याः आराधकाः प्रेतान् भूतगणान् च सेवन्ते आहारविषयेऽपि तत्र इयमेव रीतिः तस्याः सात्विक्याः श्रद्धायाः उपासकाः उत्साह वर्धकं चित्तप्रसादकरं प्रीतिकरम् आहारं सेवन्ते राजस्यातया युक्ताः दुःखशोकप्रदान् कट्वम्लवणात्युष्यान् आहारान् सेवन्ते एतया तामस्या श्रद्धया युक्ताश्च यातयामे गतरसे दुर्गन्धयुते च आहारे प्रीतिमन्तः भवन्ति
समीचीनं भगिनि अस्तु अग्रे प्रिया भगिनि
आहारविषयेऽपि तत्र इयमेव रीतिः तस्याः सात्विक्याः श्रद्धायाः उपासकाः उत्साहवर्धकं चित्तप्रसादकरं प्रीतिकरम् आहारं सेवन्ते राजस्यातया युक्ताः दुःखशोकप्रदानकट्वं ललवणात्
तत्र कटु आम्ल लवण अतियुष्णाम् अतियुष्णान् इति
आहारान् सेवन्ते एतया तामस्या श्रद्धया युक्ताश्च यातयामे गतरसे दुर्गन्धयुते च आहारे प्रीतिमन्तः भवन्ति.
अहं पठितवती न महोदय?
चिन्ता मास्तु भगिनि, पुनः एकवारं
आसां श्रद्धानां विभागेन वयं मनुष्याणां स्वभावं सम्यक् अवज्ञातुं शक्नुमः.
समीचीनं, धन्यवादः भगिनि. अस्तु, अग्रे सुजाता भगिनि.
आसां श्रद्धानां
तत्कृतं भगिनि, इदानीं तत्र तपसि इति
तपसि अपि अस्याः श्रद्धायाः श्रद्धायाः त्रैविध्यम् अस्ति. तया परया श्रद्धया युक्ताः अफलाकाङ्क्षिणः भवन्ति. ते सात्विकाः इति उच्यन्ते. द्वितीयायाम् अस्यां राजस श्रद्धायाम्
क्षम्यतां
महोदय, श्रद्धायाम् अन्तर्भूताः जनाः सत्कारमान पूजार्थं तपः आचरन्ति. तामसीं श्रद्धाम् उपाश्रिताः तु तमोरूपया आत्मपीडया अन्येषां नाशार्थं तपः कुर्वन्ति. एवं एषा श्रद्धा त्रिविधा वर्तन्ते. तद्विषये कृष्णस्य उक्तिः एषा.
तावत्पर्यन्तम्. अस्तु, धन्यवादः भगिनि. अस्तु, इदानीं तत्र पश्यामः, तत्र मूलविषय किम् इत्युक्ते, तत्र स्त्रीलिङ्गे सर्वनामशब्दः, तत्र इदं शब्दस्य स्त्रीलिङ्गरूपाणि अग्रिमे पुटे दत्तम् अस्ति, तत्र रूपाणि दत्तानि सन्ति. तत्र इयम्, इमे, इमाः इति, तत्र अतः तत्र इयम् इति अस्ति, तत्र इयं च सात्विकी. इयं नाम एषा इति चिन्तयामः. इमाम् इत्युक्ते तत्र एषाम्, एताम् इति, तादृशं तत्र अस्याः, तत्र एतस्याः इति तादृशं चिन्तयितुं शक्नुमः. अतः तत्र इयम्, अस्याः, इमाम् अपि, तया, एतया इति सर्वमस्ति तत्र इदं शब्दस्य स्त्रीलिङ्गरूपाणि. किन्तु इदानीं तत्र पङ्क्तिशः पश्यामः, तत्र पाठे किं किम् अस्ति इति, तत्र सावधानम् अपेक्षितं, यतोहि तत्र विशेषणविशेषभावः अस्ति, अपि तत्र तृतीयाविभक्तियुक्तानि पदानि सन्ति. तत्र अत्र तृतीयाविभक्ति किमर्थम् इति तत्र चिन्तनीयम् अस्ति, नो चेत् सम्यक् अवगमनं न भवति. अस्तु, तर्हि तत्र नरेश महोदय आरम्भं करोति वा महोदय?
भगवद्गीतायां भगवान् श्रीकृष्णः श्रद्धां सम्यक् विवृतवान् अस्ति.
तत्र भगवान् श्रीकृष्णः किं विवृतवान् अस्ति?
श्रद्धां.
श्रद्धा का इति सः विवृतवान् अस्ति. विवृतवान् इति तत्र कीदृशरूपम् अस्ति?
लङ्लकारः तवतु.
तवतु. तत्र पठति, पठितवान्, विवृणोति, विवृतवान्. समीचीनं. तत्र विवरणं कृतवान्, विवरणं श्रद्धायाः विवरणं कृतवान् अस्ति श्रीकृष्णः. तत्र कुत्र एतद् विवरणं कृतवान् सः?
भगवद्गीतायां.
भगवद्गीतायां तत्र विवरणं कृतवान् अस्ति श्रीकृष्ण भगवान् श्रीकृष्णः. अस्तु अग्रे.
इयं च सात्विकी राजसी तामसी इति त्रिविधा.
हा इयं नाम किं तत्र अथवा इयं नाम का?
इयं सर्वनाम पदमस्ति.
एषा एषा इति स्वीकुर्मः एषा इति. हा तत्र किन्तु एषा इत्युक्ते का एषा का?
श्रद्धा.
हा इयं श्रद्धा. इयं श्रद्धा अथवा एषा श्रद्धा. हा
त्रिविधा.
हा त्रिविधा अस्ति. त्रिविधा त्रिविधा पुनः विशेषणम् अस्ति. श्रद्धा कीदृशी? श्रद्धा त्रिविधा नाम तत्र श्रद्धायाः त्रैविध्यम् अस्ति. तत्र श्रद्धा श्रद्धायाः भागत्रयं कर्तुं शक्नुमः इति. हा तत्र भागत्रयं त्रिविधा अस्ति. तत्र त्रैविध्यं कीदृशं? तत्र प्रथमा किम् अस्ति?
प्रथमा सात्विकी.
हा तत्र सात्विकी श्रद्धा.
राजसी श्रद्धा.
हा
तामसी श्रद्धा.
हा तत्र त्रैविध्यं नाम तत्र सात्विकी इति विशेषणम् इति स्वीकर्तुं शक्नुमः. तत् अतः एव तत्र स्त्रीलिङ्गे अस्ति. तत्र सात्विकी श्रद्धा, राजसी श्रद्धा, तामसी श्रद्धा. अग्रे.
इमां सात्विकीं श्रद्धाम् आपन्नाः जनाः देवान् यजन्ते.
हा तत्र
कर्मपदमस्ति इमां सात्विकीं श्रद्धां. के यजन्ते? देवान् यजन्ते.
हा किन्तु तत्र श्रद्धाम् इति अस्ति, देवान् यजन्ते इति अस्ति. श्रद्धामपि द्वितीयविभक्ति, देवान् अपि द्वितीयविभक्ति. तत्र आपन् अतः तत्र किम् अस्ति तत्र?
आपन्नाः जनाः.
अतः तत्र किम् अस्ति तत्र? यजन्ते इति क्रियापदम् अस्ति खलु महोदय. तत्र कर्तृपदं किम् अस्ति?
कर्तृपदं देवान्.
न कर्तृपदं कर्तृपदं किम् अस्ति? के यजन्ते? जनाः यजन्ते. जनाः यजन्ते. जनाः यजन्ते. इदानीं तत्र जनाः कं यजन्ते अथवा कान् यजन्ते?
श्रद्धां.
न न जनाः यजन्ते. कान् यजन्ते? देवान् यजन्ते. देवान् यजन्ते. अतः तत्र देवान् अस्ति कर्मपदं, यजन्ते इति क्रियापदस्य. कान् यजन्ते? जनाः कान् यजन्ते? देवान् यजन्ते. इदानीं कीदृशः जनाः देवान् यजन्ते इति प्रश्नः. अतः उत्तरं किम् अस्ति?
इमां सात्विकी.
तत्र आपन्नाः. तत्र जनाः येषु जनेषु किमपि अस्ति, तत्र किम् अस्ति इत्युक्ते तत्र ते आपन्नाः सन्ति नाम तत्र तेषु किमपि अस्ति. किम् तत्र किम् अस्ति अथवा का अस्ति? तत्र सात्विकी श्रद्धा तेषु अस्ति. यदि तेषु श्रद्धा अस्ति, वयं किं वदामः? श्रद्धाम् आपन्नः जनः नाम तस्मिन् जने यदि श्रद्धा अस्ति चेत् तत्र श्रद्धाम् आपन्नः जनः इति वदामः. तत्र तस्मिन् किमपि अस्ति. अतः तत्र विश्वासम् आपन्नः जनः. तत्र यदि तत्र जने विश्वासः अस्ति, तत्र तादृश विश्वासः मास्तु किन्तु तत्र श्रद्धां स्वीकुर्मः. तत्र श्रद्धाम् आपन्नाः जनाः देवान् यजन्ते. तत्र आपन्नाः इति तत्र आप्नोति अथवा प्राप्नोति तत्र तादृश अर्थे तत्र तस्य क्रियापदस्य आपन्नाः. तत्र किम् आपन्नाः इत्युक्ते तत्र श्रद्धाम् आपन्नाः इति. अतः तत्र कर्मपदं भवति. तत्र क्रियापदं पूर्वम् आसीत् किन्तु तत्र रूपस्य परिवर्तनं जातम् इदानीं तत्र. अतः तत्र आपन्नाः इति अस्ति. आप्नोति इति प्रायशः आसीत् पूर्वं. तत्र आपन्नाः श्रद्धाम् आपन्नाः जनाः
देवान्
यजन्ते. तत्र सात्विकीं श्रद्धाम् अथवा तत्र अन्यरीत्या यदि वक्तुम् इच्छामः तत्र सात्विकी तत्र सात्विकया श्रद्धया युक्ताः जनाः इति अपि तत्र अग्रे अपि अग्रिमे वाक्ये अन्यत् अन्यविधा अपि अस्ति तत्र पश्यतु अन्यरीतिः अपि अस्ति.
अस्याः राजस्याः श्रद्धायाः उपासकाः यक्षरक्षांसि भजन्ते.
इदानीं प्रथमतया तत्र सात्विकी श्रद्धा युक्ताः सात्विकश्रद्धायुक्ताः जनाः कीदृशाः इति उक्तम्. इदानीं तत्र द्वितीयविधा तत्र तत्र राजसी श्रद्धा अथवा राजस्याः राजसी श्रद्धा अस्ति तस्य षष्टि किमस्ति?
षष्टि राजस्या श्रद्धायाः
हा उपासकाः तत्र ते हा ते उपासनं कुर्वन्ति तत्र ते कस्य उपासकाः ते राजस्याः श्रद्धायाः उपासकाः. अत्र अस्याः एतस्याः स्थाने इदानीम् अस्याः इति अस्ति अस्याः राजस्याः श्रद्धायाः उपासकाः किं भजन्ते अथवा तत्र यजन्ते अथवा भजन्ते तत्र
यक्षरक्षांसि भजन्ते
यक्षरक्षांसि भजन्ते यक्षरक्षांसि इति कर्मपदम् अस्ति तत्र यक्षरक्षांसि तत्र एकम् एव अस्ति वा अथवा बहुवचने अस्ति वा किम्?
बहुवचने अस्ति.
हा बहुवचने तत्र किं किम् अस्ति तस्मिन् पदे
यक्ष
यक्ष इति एकं हा तत्र हा रक्षांसि नाम राक्षसाः तत्र रक्षांसि तत्र बहुवचने अस्ति हा तत्र यक्षरक्षांसि भजन्ते कर्मपदं नपुंसकलिङ्गे अस्ति प्रायशः तत्र समानरूपम् अस्ति तत्र अस्याः राजस्याः श्रद्धायाः उपासकाः यक्षरक्षांसि भजन्ते. इदानीं तत्र राजस्याः श्रद्धायाः उपासकाः इति स्थाने तत्र तद् उपयुज्य प्रथमवाक्यं करोतु तत्र सात्विकीं श्रद्धाम् इति स्थाने
सात्विक्याः श्रद्धायाः
उपासकाः
उपासकाः
देवान्
जनाः देवान्
यजन्ते तावदेव समीचीनं हा अस्तु अग्रे
तामस्याः अस्याः आराधकाः प्रेतान् भूतगणान् च सेवन्ते. अत्रापि षष्ठीविभक्ति तामस्याः अस्याः आराधकाः
समीचीनम् आराधकाः उपासकाः स्थाने आराधकाः इति अस्ति ते सेवन्ते भजन्ते स्थाने सेवन्ते इति अस्ति ते कान् सेवन्ते अथवा तान् पूजन्ते यजन्ते
प्रेतान् भूतगणान्
हा प्रेतान् भूतगणान् च सेवन्ते समीचीनं महोदय धन्यवादः. अस्तु अग्रे प्रिया भगिनी तत्र इमां सात्विकीं श्रद्धाम् आपन्नाः जनाः देवान् यजन्ते तत्र वाक्यत्रयमस्ति तत्र किञ्चित् परिवर्त्य वदति वा भगिनी तत्र द्वितीयस्य रूपम् उपयुज्य प्रथमवाक्यम् अपि तृतीय वाक्यस्य रूपम् उपयुज्य द्वितीयवाक्यं तादृशं करोति वा? यथा यथा नरीश् महोदय कृतवान् तत्र प्रथमवाक्यं पश्यतु इमां सात्विकीं श्रद्धाम् आपन्नाः जनाः देवान् यजन्ते इति अवगच्छति खलु वाक्यम्? इदानीं तदेव वाक्यम् अन्यरीत्या वक्तुं शक्नुमः तत्र अस्याः सात्विक्याः श्रद्धायाः उपासकाः देवान् यजन्ते इति द्वितीयवाक्यम् उपयुज्य.
अस्तु अस्तु महोदय
अवगच्छति खलु किं कर्तव्यम् इति?
आम् आं महोदय
इमां सात्विकीं श्रद्धाम् आपन्नाः जनाः देवान् यजन्ते. अस्याः सात्विक्याः श्रद्धायाः आपन्नाः जनाः.
आपन्नः इति इदानीं त्यजामः. आपन्नः तत्र आपन्नः अस्ति चेत् तत्र श्रद्धाम् आपन्नः, तत्र द्वितीयविभक्ति भवेत्. तत्र षष्ठी न भवति. उपासकाः अस्ति चेत् तत्र कस्य उपासकः अथवा उपासकः?
श्रद्धायाः उपासकाः देवान् यजन्ते.
समीचीनं. हा, इदानीं तत्र प्रथम वाक्यस्य रूपम् उपयुज्य तत्र श्रद्धाम् आपन्नाः जनाः देवान् यजन्ते इति तद्रूपम् उपयुज्य तृतीयवाक्यं करोतु. तत्र तामस्यां तत्र तत्र तामसीं
इमां तामसीं
श्रद्धाम् आपन्नाः जनाः
भूतगणान्
प्रेतान् भूतगणान् च
सेवन्ते.
हा, इदानीं तत्र द्वितीयवाक्यं मध्ये अस्ति तत्र राजस्याः श्रद्धायाः. तत्र तद् प्रथमवाक्यस्य रूपे वदतु तत्र.
अस्तु, इमां राजसीं श्रद्धाम् आपन्नाः जनाः यक्षरक्षांसि भजन्ते.
हा, इति समीचीनं भगिनि. अस्तु, हा, अग्रिमं वाक्यम् अग्रिमवाक्यद्वयमपि करोतु.
आहारविषयेपि तत्र इयमेव रीतिः.
एतावत् किम् आसीत् तत्र? श्रद्धा इति विषयः आसीत्. श्रद्धायां तत्र त्रैविध्यम् अस्ति इति.
आहारविषयेपि
तत्र त्रैविध्यं, तत्र त्रिविधा अस्ति इति विचारः.
तस्याः सात्विक्याः श्रद्धायाः उपासकाः उत्साहवर्धकं चित्तप्रसादकरं प्रीतिकरम् आहारं सेवन्ते. तत् अहं परिवर्तनं करोमि. इमां सात्विकीं श्रद्धाम् आपन्नाः जनाः उत्साहवर्धकं उत्साहवर्धकम् एव वा कान् करोमि वा?
न, तदेव समीचीनम्. उत्साहवर्धकम्
चित्तप्रसादकरं प्रीतिकरम् आहारं सेवन्ते.
हा, इदानीं तत्र समीचीनं भगिनि, बहु उत्तमम्. इदानीं तत्र वाक्ये किम् अस्ति इति पश्यामः. तत्र एतादृशाः जनाः तत्र ये तत्र सात्विक्याः श्रद्धायाः उपासकाः सन्ति, नाम तेषु तत्र उपासकाः नाम किं? तत्र पूजां करोति, तत्र श्रद्धायाः पूजां करोति, तत्र गौरवं कुर्वन्ति. तत्र सात्विकी नाम तेषु तत्र सात्विकी श्रद्धा अस्ति इति चिन्तनं. तेषु तत्र सात्विकी श्रद्धा अस्ति चेत् ते कीदृशम् आहारं सेवन्ते, किं ते सेवन्ते, तत्र किं खादन्ति ते, नाम तत्र कीदृशम् आहारं प्रीतिकरम्
यः प्रीति वर्धति, यस्य आहारस्य आहारेण येन आहारेण चित्तप्रसादकं भवन्ति.
हा, समीचीनं भगिनि. तत्र आहारस्य खादनेन उत्साहः वर्धते, अतः तत्र उत्साहवर्धकम् आहारं समीचीनं. हा, अपि चित्तप्रसादकरं. चित्तप्रसादकरं नाम तत्र शान्तिचित्तः. तत्र हा, तत्र चित्ते तत्र अनेकाः तत्र किं विकृतयः भवन्ति, किन्तु तत्र चित्तप्रसादकरम् आहारं नाम तत्र चित्तप्रसादम् आहारस्य खादनेन भवति. अपि प्रीतिः तत्र सर्वेषां प्रति प्रीतिः इति तत्र प्रीतिकरम् आहारम् आहारस्य खादनेन भवति इति. समीचीनं भगिनि. अस्तु, अस्तु, तर्हि अग्रे धन्यवादः भगिनि. अस्तु, अग्रे तत्र ललिता भगिनी अग्रे
पठामि. राजस्य तया युक्ताः दुःखशोकप्रदान् कट्वम्ल लवणान् लवणात्युष्णान् आहारान् सेवन्ते.
हा, तत्र ते कान् आहारान् सेवन्ते? आहारान् सेवन्ते के? के ते?
के सेवन्ते?
राजस्याः. राजस्याः श्रद्धायाः.
राजस्याः श्रद्धायाः
युक्ताः.
युक्ताः दुःखशोकप्रदान्
इत्युक्ते क्षम्यतां, तत्र राजस्याः, राजस्याः न, क्षम्यताम् अहं सम्यक्तया न उक्तवान्. राजस्या न, न, तत्र राजस्या इति अस्ति. राजस्या इति विभक्ति का तत्र?
राजस्या
प्रातिपद, तत्र प्रथमविभक्तिरूपं किम् अस्ति राजस्या इति पदस्य? प्रथमे परिच्छेदे अस्ति
राजा.
न, न, प्रथमपरिच्छेदे अस्ति.
पश्यतु,
इयं च सात्विकी.
राजसी अस्ति.
अतः राजस्या नाम विभक्तिका तत्र?
राजस्या षष्टिविभक्ति अस्ति.
न, 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 राजस्याः इति षष्टिविभक्ति.
ओ, च पञ्चमी विभक्ति.
न, न, राजस्या नदी, नद्या.
नद्या, ओ, तृतीया विभक्ति.
तृतीया, राजस्या
अपि त्रिया, तृतीया विभक्ति. राजस्यातया.
इदानीं तत्र श्रद्धा इति अस्ति. श्रद्धा इति पदस्य तृतीया किम् अस्ति?
श्रद्धया.
राजस्य श्रद्धया युक्ताः जनाः किं किं सेवन्ते? तत्र दुःखशोकप्रधान्. दुःखशोकप्रधान् नाम
दुःखं,
दुःखं प्रधा, तत्र प्रधान् नाम ददाति, दुःखं ददाति. बहुवचनम् आहारान् इति अस्ति, अतः तत्र आहारः इति पुल्लिङ्गे अस्ति. हा, इदानीं तत्र दुःखशोकप्रदान्, दुःखं ददाति, शोकं ददाति. हा, एतस्य आहारस्य खादनेन दुःखं भवति, शोकम् अपि भवति. तत्र दुःखः भवति, शोकः भवति, तादृशं तत्र दुःखं ददाति, शोकं ददाति. कीदृशं तत्र? कटु,
कटु अस्ति, आम्ल,
कटु आम्ल, लवण, अतियुष्णम्, उष्णाः. कट् वम्ल, लवणात्युष्णान् आहारान् सेवन्ते. अग्रे,
अग्रे, एतया तामस्या श्रद्धया युक्ताश्च.
इदानीं तत्र तृतीयविधं, तत्र, हा, तत्र प्रथमा अस्ति सात्विक्याः श्रद्धायाः. इदानीं तत्र तामस्या श्रद्धया युक्ताः जनाः किं तत्र? तत्र युक्ताश्च जनाः, अन्ते क्रियापदम् अस्ति. क्रियापदं किम् अस्ति?
अन्ते
क्रियापदं वाक्यस्य अन्ते अस्ति. क्रियापदं किम् अस्ति? जना युक्ताश्च जनाः, युक्ताः जनाः भवन्ति. किं भवन्ति? प्रीतिमन्तः भवन्ति. प्रीतिमन्तः नाम किम्? तत्र प्रीतिमन्तः इति प्रातिपदिकं किम् अस्ति?
प्रीतिमान्, प्रीतिमन्तौ, प्रीतिमन्तः.
हा, समीचीनं, प्रीतिमान्. तत्र प्रीतिमान्, तत्र प्रीतिमत् इति प्रातिपदिकं. हा, भवत्, भवत् इति तत्र भवान् तादृशं. तत्र प्रीतिमत्, प्रीतिमान्, प्रीतिमन्तौ, प्रीतिमन्तः. मत् अस्ति चेत् तत्र प्रीति इकारान्त इति वार्ता नास्ति. तत्र प्रीतिमत् इति तकारान्तपदम् अस्ति. किमर्थं तत्र? ओ, अस्तु अस्तु अस्तु, मत् किमर्थं? हा, अस्तु अस्तु अस्तु, हा, व इति नास्ति इति, हा, व इति नास्ति इति. हा, धन्यवादः, सत्यं सत्यं. तत्र बुद्धिमान् इति अस्ति, किन्तु धनवान् इति तद् वक्तुम् इच्छति खलु. वत् इति नास्ति, किन्तु मत् इति अस्ति इति. हा, समीचीनं भगिनि. हा, तत्र अज अकार विहाय यत्किमपि अस्ति चेत् तत्र इकारः इति विशेषः नास्ति. अकारः नास्ति इति विशेषः. हा, केवलम् अकारः अस्ति चेत् तत्र बकारः, तत्र धनवान्. अन्यत्र सर्वत्र तत्र बुद्धिमान् इति तत्र तादृशमेव प्रीतिमान् इति समीचीनं भगिनि हा अस्तु अग्रे तत्र धन्यवाद
इत्युक्ते
किं भगिनि पश्यामः इदानीमेव पश्यामः भगिनि एकनिमिषः अस्तु उषा भगिनि इदानीम् एतदेव वाक्यं तत्र प्रीतिमान् इत्युक्ते कः
प्रीतिमान् इत्युक्ते यस्य आहारे प्रीतिः अस्ति
आहारे प्रीतिमान् अस्तु तत्र प्रीतिः अस्ति हा प्रीतिमान् नाम यस्य प्रीतिः अस्ति इति सः प्रीतिमान् इदानीं तस्य प्रीतिः कस्मिन् विषये अस्ति आहारे अस्ति आहारे अस्ति आहारे इति तत्र सप्तमी अस्ति किमर्थं सप्तमी अस्ति तत्र
प्रीति
तत्र गृहम् इति गृहे इति तत्र स्थलस्य विषयः अस्ति वा अत्र स्थलम् इति स्थलम् अस्ति इति
न महोदय
हा स्थलम् इति न किन्तु तत्र विषयः विषयः इति आहार इति विषये अतः तत्र विषयसप्तमी विषयः अस्ति इति कृत्वा तत्र सप्तमी अस्ति आहार आहारः इति विषये तस्य प्रीतिः अस्ति अथवा ते प्रीतिमन्तः भवन्ति जनाः तत्र तामस्या श्रद्धया युक्ताः जनाः इदानीं तत्र कीदृश आहारं आहारः कीदृशः अस्ति तत्र यातयामः गतरसः दुर्गन्धयुतः आहारः तत्र सर्वं यातयामः गतरसः दुर्गन्धः सर्वं तत्र किं सम्यक् आहारः नास्ति इति तावदेव तत्र तत्र अर्थः कः इति द्रष्टुं शक्नुवन्ति किन्तु इदानीं मास्तु
गतरस इत्युक्ते
रसः यस्य यस्य आहारस्य रसः गतः रसं गतः हा तादृशम् अस्तु इदानीं तत्र राजस्य तया युक्ताः जनाः इति आसीत् तत्र हा उपासकाः इति तत्र रूपम् उपयुज्य अत्र वदतु तृतीयवाक्यं तत्र
श्रद्धायाः उपासकाः दुःखशोकप्रदान् कटु अम्ल लवण अति उष्णान् आहारान् सेवन्ते
समीचीनं तदेव अन्तिमवाक्यमपि करोतु
तामस्याः श्रद्धायाः उपासकाः यातयामे गतरसे दुर्गन्धयुते च आहारे प्रीतिमन्तः भवन्ति
हा समीचीनं धन्यवादः भगिनी अस्तु अग्रे गीताञ्जलि भगिनि
आं महोदय आसाम् इति न महोदय आसां श्रद्धानां विभागेन वयं मनुष्याणां स्वभावं सम्यक् अवज्ञातुं शक्नुमः
आसां नाम श्रद्धानाम् इति अस्ति श्रद्धानाम् इति विभक्ति का तत्र
षष्ठी बहुवचन
हा अत्र आसाम् आसामपि विशेषणम् अस्ति आसाम् इति इदं पदस्य स्त्रीलिङ्गरूपम् आसाम् इति तत्र एषा आसीत् चेत् तत्र किं भवति एषा एषा इति पदस्य
एषा श्रद्धा
हा इदानीं षष्ठी बहुवचनं किम् अस्ति
आसाम्
न आसाम् इति मास्तु आसाम् इति इदं पदस्य एषा आसीत् चेत् समीचीनं हा विभागेन तत्र विभागं कुर्मः कस्य विभागं कुर्मः श्रद्धानां विभागः कुर्मः इदानीं विभागं कृतं तेन किं जातं तेन किम् अवगन्तुं शक्नुमः वयं मनुष्याणां स्वभावं
क्षम्यतां स्वभावं सम्यक्
अवज्ञातुं तत्र तुमुन् हा तत्र हा अवगन्तुम् अथवा अवज्ञातुं शक्नुमः समीचीनम् समीचीनं भगिनि अस्तु अग्रे तत्र शोभ भगिनि तत्र वाक्यम् एकम् एव वाक्यं भगिनि किन्तु एकं करोतु तत्र
आम् महोदय, तत्र तपसि अपि इति
अथवा एतत् कुर्मः, तत्र यत् पूर्वमासीत् तत्र सात्विक्याः राजस्याः इति, तत्र तामस्याः इति, तत्र किं कृतं, तत्र प्रथमवाक्यं युक्ताः इति न उक्तं, तत्र सात्विक् अतः तत्र युक्ताः इति उपयुज्य श्रद्धा, सात्विकी श्रद्धा उपासकाः इति अस्ति, तस्याः सात्विक्याः श्रद्धायाः उपासकाः इति अस्ति, हा तद्वाक्यं तत्र युक्ताः इति उपयुज्य करोतु भगिनि.
अस्तु महोदय, तत्र राजस्या तया युक्ताः इति किल
इति तादृशरूपं किन्तु अस्मिन् वाक्ये.
अस्तु, तत्र सात्विक्या तया युक्ताः, सात्विक्या श्रद्धया तया युक्ताः इति
समीचीनं, जनाः
तत्र
पुनः
उत्साहवर्धकं चित्तप्रसादकरं प्रीतिकरम् आहारं सेवन्ते
इति तावदेव भगिनि, समीचीनं. अस्तु अस्तु, अतः तत्र एतादृशम् अभ्यासं, एतादृश अभ्यासः भवति चेत् तत्र वाक्यत्रयमस्ति, तत्र एकं वाक्यं स्वीकृत्य अन्यस्य रूपेण यदि कुर्मः लाभः, बहु लाभः अस्ति. अस्तु तर्हि तत्र अद्य अत्र एव स्थगयामः, किन्तु तत्र एकं वक्तुम् इच्छामि, इदानीं तत्र ध्वनिमुद्रणं स्थगयामि एकनिमिषः.